राम श्रीमद्भागवत महापुराण मूल पाठ श्रीमद्भागवत महापुराण षष्ठ स्कंध 19 अध्याय 19 ट्रेक में।
ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणम षष्ठ स्कंध अथ प्रथमोध्याय। राजोवाच निवृत्तिमार्ग कथित आदौ भगवता यथा क्रमयोगोपलब्धेन ब्रह्मणा यद संसृतिः। निवृत्तिमार्गः कथित आदौ भगवता यथा क्रमयोगोपलब्धेन ब्रह्मणा यद संसृतिः। प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने योऽसावलीनः प्रकृतेर्गुणसर्गः पुनः पुनः। अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः। प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् धरामण्डलसंस्थानम् भागलक्षणमानतः ज्योतिषाम् विवराणाम् च यथेदमसृजद्विभुः। अधुनेह महाभाग यथैव नरकान्नरः नानोग्रयातनान्येयात्तन्मे व्याख्यातुमर्हसि। श्रीशुक उवाच न चेदिहैवापचितिम् यथाम् हसः कृतस्य कुर्यान्मन उक्तिपाणिभिः ध्रुवम् स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः। तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना। दोषस्य दृष्ट्वा गुरुलाघवम् यथाभिषक्चिकित्सेतरुजाम् निदानवित्। राजोवाच दृष्टश्रुताभ्याम् यत्पापम् जानन्नप्यात्मनोहितम् करोति भूयो विवशः प्रायश्चित्तमथो कथम्। क्वचिन्निवर्तते भद्रात् क्वचिच्चरति तत्पुनः प्रायश्चित्तमतोपार्थम् मन्ये कुञ्जरशौचवत्। श्रीशुक उवाच कर्मणा कर्मनिर्हारो नैयात्यन्तिक इष्यते अविद्वदधिकारित्वात् प्रायश्चित्तम् विमर्शनम्। नाश्नतपथ्यमेवान्नम् व्याधयोऽभिभवन्ति हि एवम् नियमकृद्राजन् शनैक्षेमाय कल्पते। तपसा ब्रह्मचर्येण शमेन च दमेन च त्यागेन सत्यशौचाभ्याम् यमेन नियमेन च देहवाग्बुद्धिजम् धीरा धर्मज्ञाः श्रद्धयान्विताः क्षिपन्त्यघम् महदपि वेणुगुल्ममिवानलः। केचित् केवलया भक्त्या वासुदेवपरायणाः अघम् धुन्वन्ति काट्स्न्येन निहारमिव भास्करः। न तथा यगवान् राजन् पूयेत तपादिभिः यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया सध्रीचीनो ययम् लोके पन्थः क्षेमो कुतो भयः। सुशीला साधवो यत्र नारायणपरायणाः प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः। सकृन्मनः कृष्णपदारविन्दयोर्निवेशितम् तद्गुणरागीयैरिह न तेयमम् पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः। अत्र चोदाहरन्तीममितिहासम् पुरातनम् दूतानाम् विष्णुयमयोः संवादस्तम् निबोध मे। कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः। बन्ध्यक्षकैतवैश्चौर्यैर्गर्हिताम् वृत्तिमास्थितः बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः। एवम् निवसतस्तस्य लालयानस्य तत्सुतान् कालोत्यगान् महान् राजन् नष्टाशीत्यायुषः समाः। तस्य प्रवयसः पुत्रा दशतेषाम् तु यो वमः बालो नारायणो नाम्नात्पित्रोऽस्य दयितो भृशम्। सबद्धहृदयस्तस्मिन्नर्भके कलभाषिणि निरीक्षमाणस्तल्लीलामुदे जरठो भृशम्। भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः भोजयन् पाययन्मूढो न वेदागतमन्तकम्। स एवम् वर्तमानोऽज्ञो मृत्युकाल उपस्थिते मतिम् चकारतनये बाले नारायणाव्वये। सपाशहस्तान् स्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान् वक्रतुण्डानूर्ध्वरोम्न आत्मानम् नेतुमागतान्। दूरे क्रीडनकासक्तम् पुत्रम् नारायणः वयम् प्लावितेन स्वरेणोच्चैराजुहा वा कुलेन्द्रियः। निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम् भर्तुर्नाम महाराज पार्षदः सहसा पतन् विकर्षतोऽन्तर्दयाद्दासीपतिमजामिलम्। यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः केयूयम् प्रतिषेद्धारो धर्मराजस्य शासनम् कस्य वा कुत आयाताः कस्मादस्य निषेधथ किम् देवा उपदेवा वा यूयम् किम् सिद्धसत्तमाः सर्वे पद्मपला साक्षाः पीतकौशेयवाससः किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः सर्वे च नूत्नवयसः सर्वे चारु चतुर्भुजाः धनुर्निषङ्गा सिकदा शङ्खचक्राम्बुजश्रियः दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा किमर्थम् धर्मपालस्य किङ्करान्नो निषेधथ श्रीशुक उवाच इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः तान् प्रत्यूचुः प्रहस्येदम् मेघनिर्रादया गिरा विष्णुदूता ऊचुः यूयम् वै धर्मराजस्य यदि निर्देशकारिणः ब्रूतधर्मस्य नस्तत्वम् यच्च धर्मस्य लक्षणम् कथम् स्विध्रियते दण्डः किम् वास्य स्थानमीप्सितम् दण्ड्याः किङ्कारिणः सर्वे आहुस्वित् कतिचिन्द्रिणाम् यमदूता ऊचुः वेदप्रणिहितो धर्मो यधर्मस्तद्विपर्ययः वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम येन स्वधाम्यमी भावा रजसत्त्वतमोमयाः गुणनामक्रियारूपैर्विभाव्यन्ते यथा तथम् सूर्योऽग्निखम् मरुद्गावः सोमः सन्ध्याः नीतिशः कङ्कुः कालो धर्म इति येते दह्यस्य साक्षिणः एतैरधर्मो विज्ञातः स्थानम् दण्डस्य युज्यते सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः सम्भवन्ति हि भद्राणि विपरीतानि चानघाः कारिणाम् गुणसङ्गोऽस्ति देहवान्नय्य कर्मकृत् येन यावान्यथा धर्मो धर्मो वेह समीहितः स एव तत्फलम् भुङ्क्ते तथा तावदमुत्र वै यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा एवम् जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् मनसैव पुरे देवः पूर्वरूपम् विपश्यति अनुमीमांसते पूर्वम् मनसा भगवानजः यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि न वेदपूर्वमपरम् नष्टजन्मस्मृतिस्तथा पञ्चभिः कुरुते स्वार्थान् पञ्चवेदाथ पञ्चभिः एकस्तु षोडशेनत्रीन् स्वयम् सप्तदशोऽश्नुते तदेतत्षोडशकलम् लिङ्गम् शक्तित्रयम् महत् धत्तेऽनु संसृतिम् पुंसि हर्षशोकभयार्तिदाम् देह्यज्ञोजितषड्वर्गो नेच्छन् कर्माणि कार्यते कोशकार इवात्मानम् कर्मणाच्छाद्य मुह्यति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत् कार्यते यवशः कर्म गुणैः स्वाभाविकैर्बलात् लब्ध्वा निमित्तमव्यक्तम् व्यक्ताव्यक्तम् भवत्युत यथा योनि यथा बीजम् स्वभावेन बलीयसा एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः आसीत् स एव न चिरादीशसङ्गाद्विलीयते अयम् हि श्रुतसम्पन्नः शीलवृत्तगुणालयः धृतव्रतो मृदुर्दान्तः सत्यवान् मन्त्रविच्छुचिः गुर्वज्ञतिथिवृद्धानाम् शुश्रूषुर्निरहङ्कृतः सर्वभूतसुहृत्साधुर्मितवागनसूयकः एकदासौ वनम् यातः पितृसन्देशकृद्विजः आदाय तता वृत्तः फलपुष्पसमित्कुशान् ददर्शकामिनम् कञ्चिच्छूद्रम् सह भुजिष्यया पीत्वा च मधुमैरेयम् मदा घूर्णितनेत्रया मत्तया विश्लथन्नीव्या व्यपेतम् निरपत्रपम् क्रीडन्तमनुगायन्तम् हसन्तमनयान्तिके दृष्ट्वा ताम् कामलिप्तेन बाहुना परिरम्भिताम् जगामरिच्छयवशम् सहसैव विमोहितः स्तम्भयन्नात्मनात्मानम् यावत्सत्त्वम् यथा श्रुतम् न शशाकसमाधातुम् मनोमदनवेपितम् तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः तामेव मनसाध्यायन् स्वधर्माद्विररामः तामेव तोषयामास पितृणार्थेन यावता ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा विप्राम् स्वभार्यामप्रौढाम् कुले महति लम्भिताम् विषसर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः यतस्ततश्चोपनिन्ये न्यायतो न्यायतो धनम् बभारास्याः कुटुम्बिन्याः कुटुम्बम् मन्दधीरयम् यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः अवर्तत चिरम् कालमघायुरशुचिर्मलात् तत एनम् दण्डपाणे सकाशम् कृतकिल्बिषम् नेष्यामो कृतनिर्वेशम् यत्र दण्डेन शुध्यति। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे जामिलोपाख्याने प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।